इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। अथ वार्ताः। केन्द्रीय मन्त्रिमण्डलेन देशे शतसंख्याकानां प्लग एण्ड प्ले इति औद्योगिकोद्यानानां विकासाय 60+6,33,000 कोटि रूप्यकाणां आवंटनेन सह भारतौद्योगिक विकास योजना अनुमोदिता। ह्यः मन्त्रिमण्डलस्य उपवेशनानन्तरं नवदिल्ल्यां वार्ताहरान् संसूचयन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः कथितवान् यत् अस्याः योजनायाः उद्देश्यं वर्तते विश्वस्तरीयौद्योगिकाधारभूत संरचनायाः विकासः, विनिर्माण क्षमतायाः वर्धनम्, देशस्य विकास वृत्तान्तस्य अग्रे वर्धनं चेति। लोकसभया 20-26 विनियोग विधेयकं 2 इति अनुमोदितम्। विधेयकमिदं वित्तमन्त्रिणा निर्मला सीतारमण इत्यनया प्रस्तुतम् आसीत्। इदं विधेयकम् अस्य वित्तीयवर्षस्य सेवायै भारतस्य संचितनिधिद्वारा कतिपय धनराशीनां विनियोगम् अधिकृतकर्तुं प्रयासं करोति। अद्यारभ्यते चैत्र नवरात्रम्। अशेषदेशस्य श्रद्धालवः एतानि 9 शुभदिनानि अत्युत्साहेन भक्त्या च आचरन्ति। नवदिवसीयस्य एतस्य उत्सवस्य आरम्भः मन्दिरेषु प्रातः पूजार्चनाद्वारः जातः, यत्र बृहत्संख्यायां श्रद्धालवः आशीर्वादग्रहणाय एकत्रिताः जाताः। आशासे यत् भवद्भ्यः सर्वेभ्यः नवरात्रं शुभं भवेदिति। निर्वाचनायोगेन उक्तं यत् असौ 4 राज्येषु असम, केरल, तमिलनाडु, पश्चिमबंगालेषु, पुडुचेरी केन्द्रशासित प्रदेशे च हिंसामुक्तं, प्रलोभनमुक्तं च निर्वाचनेभ्यः आगामि विधानसभा निर्वाचनात् प्राक् 25,00,000 अधिकारिणां नियुक्तिः कृता। भाजपा दलस्य केन्द्रीय निर्वाचन समित्याः उपवेशनं नवदिल्ल्यां दलस्य मुख्यालये आयोजितम्। उपवेशने प्रधानमन्त्री नरेन्द्र मोदी, गृहमन्त्री अमित शाहः, रक्षामन्त्री राजनाथ सिंहः, भाजपाध्यक्षः नितिन नवीनः, दलस्य अन्य वरिष्ठ नेतारः च सम्मिलिताः जाताः। इदम् उपवेशनं पुडुचेरी इत्यत्र आगामि विधानसभा निर्वाचनेभ्यः प्रत्याशिनां नामानि अन्तिम रूपं प्रदानाय आयोजितम्। निर्वाचनायोगेन पश्चिमबंगाले प्राशासनिक आरक्षकाधिकारिणां मध्ये बृहत् परिवर्तनं कृतम्। आयोगेन 11 जनपदाधिकारिणः निष्कासिताः, ये जनपद निर्वाचनाधिकारी रूपेण अपि कार्यं कुर्वन्ति स्म। कूचबेहर, जलपाईगुड़ी, मालदा, मुर्शिदाबाद, नादिया इत्येतेषां स्थलानां जनपदाधिकारिणः परिवर्तिताः सन्ति। इतः प्राक् DIG इति पदाधिकारिणः अपि निष्कासिताः आसन्। आयोगेन उक्तं यत् अयम् आदेशः तत्क्षणप्रभावेन प्रवृत्तः भवति, अथ अधिकारिभ्यः अद्यावधि कार्यभारं स्वीकर्तुम् अनुपालन प्रतिवेदनं मध्याह्ने 3 यावत् समर्पयितुं च निर्देशः अस्ति। यावत् एषा प्रक्रिया न समाप्यते तावत् अपसारितेभ्यः अधिकारिभ्यः निर्वाचन सम्बद्ध कार्याणि न नियोजिताः भविष्यन्ति। प्रधानमन्त्री नरेन्द्र मोदी ह्यः कुवैत देशस्य युवराजेन शेख सबाह अल खालिद अल अहमद अल मुबारक अल सबाह इत्यनेन सह पश्चिमैशियायाः परिवर्तित स्थितौ दूरभाष माध्यमेन संवादं कृतवान्। कुवैत देशे भारतीय समुदायस्य सुरक्षायै, कल्याणाय च नैरन्तर्येण समर्थनाय प्रधानमन्त्रिणा युवराजाय धन्यवादः प्रदत्तः। अपि च आगामि ईद पर्व आलक्ष्य कुवैत देशस्य युवराजाय शुभकामनाः प्रदत्ताः। भारतस्य राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्य अयोध्यायाः यात्रां करिष्यति। एषा उत्तरप्रदेशस्य 3 यात्रायामस्ति। राष्ट्रपतिः सर्वप्रथमम् अयोध्यां सम्प्राप्स्यति, ततः श्रीराम जन्मभूमि मन्दिरं गमिष्यति। इति वार्ताः।